इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। संयुक्त अरब अमीरातस्य युवराजः शेख खालिद बिन मोहम्मद बिन जायद अल नाहियानः ह्यः भारतं सम्प्राप्तः। असौ अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं करिष्यति। अस्याः यात्रायाः उद्देश्यं संयुक्त अरब अमीरात भारतयोः सम्बन्धेषु सुदृढता विद्यते। श्रीखालिदस्य सह मन्त्रिणा वरिष्ठाधिकारिणाम् उद्योगपतिनाम् आर्थिक सहभागिनां च एकं प्रतिनिधिमण्डलम् अपि आगतम्। श्रीखालिदः भारते आर्थिक सहयोग संवर्धनाय वरिष्ठाधिकारिभिः सह उपवेशनानि अपि करिष्यति। सः तादृशेषु कार्यक्रमेषु सहभागितां करिष्यति येषु विविध क्षेत्रेषु अमीरात भारतयोः दृढार्थिक सांस्कृतिक सम्बन्धः प्रदर्शयिष्यन्ते। विदेशमन्त्री डॉ एस जयशंकरः भारत खाति सहयोग परिषदः विदेशमन्त्रिणां प्रथमोपवेशने प्रतिभागाय सऊदी अरबस्य राजधान्यां रियाद नगर्यां सम्प्राप्तः। द्विदिवसीय यात्रावधौ डॉ जयशंकरः परिषदः सदस्यदेशानां विदेशमन्त्रिभिः सह द्विपक्षीयोपवेशनानि विधास्यति। वस्तु सेवा कर परिषदः चतुःपञ्चाशत्तम सभा नवदिल्ल्यां क्रीमेरे इत्यत्र आयोजयिष्यति। केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः अस्याः सभायाः अध्यक्षतां करिष्यति। अन्तिमा जीएसटी परिषद सभा अस्मिन् वर्षे जून मासे आयोजिता, यस्मिन् परिषद सर्वेषु लौह दुग्ध इत्यादिषु 12% जीएसटी इत्यस्य एकरूपमूल्यस्य अनुशंसा कृता आसीत्। परिषदा एतदपि अनुशंसितं यत् भारतीय रेलवे द्वारा सामान्य जनाय प्रदत्ताः सेवाः यथा स्थात्र चिटिका विक्रयणं, सेवानिवृत्तिकक्षस्य प्रतीक्षालयस्य च सौविध्यं, विद्युतकोषेण संचालितयानसेवाः च सम्मिलिताः सन्ति, परञ्च एतेषु वस्तुषु सेवाकर इति न प्रयुज्यते। एशिया चषक हॉकी स्पर्धा मालिकायां गतसायं भारतेन चीनदलं 3-0 इति अंकान्तरालेन पराजितम्। एषा स्पर्धा चीनदेशस्य होलुनबुइर इत्यत्र क्रीडिता। केन्द्रीय मन्त्री तथा पश्चिमबंगस्य भाजपा अध्यक्षः सुकान्त मजुमदारः उक्तवान् यत् टीएमसी सांसदः जवाहर सरकारस्य राज्यसभातः त्यागपत्र प्रदानस्य निर्णयः स्पष्टं सूचयति यत् बंगस्य चिन्तां कुर्वन्तः जनाः ममता बनर्जी इत्यस्याः असफल नेतृत्वस्य समर्थनं कर्तुं न इच्छन्ति। एकस्मिन् सामाजिक संजालीय सन्देशे डॉ मजुमदारः आरोपितवान् यत् पश्चिमबंगस्य मुख्यमन्त्रिणः उपरि जनानां विश्वासः समाप्तः या राज्यस्य भविष्यम् अन्धकारे नयति। गतरात्रौ पेरिस नगरे पैरालिम्पिक क्रीडायाः समापनम् अभवत्। अस्य समापन समारोहस्य आयोजनं प्रतिष्ठितस्य स्टैंड डी फ्रांस इत्यत्र अभवत्। समापन समारोहे विषयगत नृत्यं, गणमान्य जनानां भाषणं च समेत्य प्रदर्शनानां जीवन्तं मिश्रणं दृश्यते स्म। समापन समारोहे स्वर्ण पदक विजेता धनुर्धरः, हरविंदर सिंहः, धावकः प्रीतिपालः च देशस्य ध्वजवाहकौ आस्ताम्। इति वार्ताः।